वामदेवाय नमः सामं प्रदामि ज्येष्ठाय नमः वस्त्रयुग्मं समर्पयामि श्रेष्ठाय नमः उपवीतं समर्पयामि श्रेष्ठाय नमः उपवीतं समर्पयामि रुद्राय नमः आभरणानि समर्पयामि कालाय नमः दिव्यश्रीगन्धान्धारयामि कलविकर्णाय नमः धवलाक्षतान् समर्पयामि बलविकर्णाय नमः बिल्वदलं समर्पयामि बलाय नमः ध्रुवमाघ्रापयामि बलप्रमथनाय नमः साक्षात् दीपं दर्शयामि धूपदीपान्तरं शुद्ध आत्मीयं समर्पयामि सर्वभूततमनाय नमः नैवेद्यम् ॐ भूर्भुवस्वः ॐ सुवितृवरेण्यं भगवो देवस्य धीमहि धियोगानं प्रचोदयात् कर्तन्त्वा सत्येन पञ्चामि अमृतमस्तो अमृतावस्तृणमसि श्री उमामहेश्वरस्वामी नमः अमृतनैवेद्यं प्रकल्पयामि ॐ प्राणाय स्वाहा ॐ प्राणाय स्वाहा ॐ जानाय स्वाहा ॐ प्रजानाय स्वाहा ॐ समानाय स्वाहा ॐ ब्रह्मणे स्वाहा मध्ये मध्ये पानीयं समर्पयामि अमृताभिधानमसि उत्तराभोषं समर्पयामि हस्तोक्षालयामि पादोक्षालयामि शुद्ध आत्मीयं समर्पयामि मनोन्मनाय नमः ताम्बूलम् मनोन्मनाय नमः ताम्बूलं समर्पयामि ताम्बूलतरुणानन्तरं सुख आत्मनीयं समर्पयामि नीराजनम् ॐ अघोरेभ्यो अघोरेभ्यो अघोरघोरेभ्यः सर्वेभ्यः सर्वसर्वेभ्यो नमस्ते स्तुरूपेभ्यः यदि उत्तरनीराजनं दर्शयामि निराजनानन्तरं शुद्ध आत्मनीयं समर्पयामि नमस्करोमि नमः पार्वतीपतये हर हर महादेव ॐ तत्पुरुषाय महादेवाय धीमहि तन्नो रुद्रप्रचोदयात् दिव्यसुवर्णमन्त्रपुष्पं समर्पयामि ईशानसर्वविद्यानाम् ईश्वर सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मा सोमे अस्तु सदाशिवो आत्मप्रदक्षिण नमस्कारान् समर्पयामि अनेन चतुर्थवाराभिषेकेन भगवान् सर्वात्मकविध्वंसि उमामहेश्वरस्वामिदेवतार्पणमस्तु पूर्वोक्तेवं गुणविशेषविशिष्टायां सपतिधौ श्रीउमामहेश्वरस्वामिदेवतामुक्तस्य श्री उमामहेश्वरस्वामिदेवतां प्रीत्यर्थं चतुर्थवाराभिषेकानन्तरमन्योन्यसहायेन पञ्चमवाराभिषेकञ्च करिष्ये ॐ भूर्भुवः स्वः चण्डीश्वराय नमः इत्युत्तरतः पूर्वनिर्माल्यं सृज्य सज्जो जातं प्रपद्यामि आवाहयामि आवाहं समर्पयामि सज्जो जाता जवै नमो नमः आसनं समर्पयामि भवे भवेन इति पाद्यं समर्पयामि अतिभवे भवस्वमाम् इत्यभ्यं समर्पयामि भवोद्भवाय नमः शुद्ध आगमीयं समर्पयामि वामदेवाय नमः इति स्नानम् ॐ नमो भगवते रुद्राय ॐ नम्
नमस्ते रुद्रमञ्जमभूतोदीशते नमः नमस्ते नस्त्वजन्मने बाहुभ्यामुदते नमः या नैष शिवता शिवं बभूवते धनुः शिवाशरभ्या यातमतया नो रुद्रमृणया या ते रुद्रशिवा तनोरघोरापापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः या विषं गिरिशन्तहस्ते विभर्ष्यस्तवे शिवां गिरिप्रथां कुरुमाहि पुंसीः पुरुषं जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमित्यगतयक्ष्मकं सुमनासत् अध्यवोचति भक्ता प्रथमो दैव्योऽभिषणु नैकश्च सर्वान् जम्भयन्त सर्वाश्चातुधान्यः असौ व्यस्ताम्रो अरुणमृतभद्रुः सुमङ्गलः ये चेमागं रुद्रा हरयो दक्षुष्या सहस्रशो वैशा गुम्हेण धीमहे असौ यो वसत्पतिनीलैलीभोव्योहितः उतैनं गोपादृशं न दृशन्नुतहान्यः उतैनं विश्वाभूतानि सदृष्टोपयाजनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीदृशे अथो ये अस्य सत्त्वानोऽहं तेभ्यो कलं नमः प्रमुञ्चधर्मनस्तमृतयोरात्मीयोर्जनाम् याश्च ते हस्तैषवः पराता भगवोपा अव अवदत्यधनुस्त्वगं सहस्राक्षशतेषुते निशीर्यशल्यानां मुखा शिवो नः सुमना भव द्विज्यं धनुःकपर्दिनो विशल्लोपाणवागुम् उदा अन्वेषन्नस्येष वा भुनस्य निषङ्गतिः याते दुर्गेषुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्तमयं मया परिभुज नमस्ते अस्मायुधायाय कृष्णवे उभाभ्यामुदते नमो बाहुभ्यां तव धर्मणे परिभे धन्वनो हेतिरस्मान्नृणक् विश्वतः अथोयिषधि स्तवारे अस्मन्विधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बराय त्रिवान्तराय त्रिराग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्मिञ्जलाय द्विषीमते पथीनां पतये नमो नमो वभृशाय विद्वाजिने नानां पतये नमो नमो हरिकेशायोपधीतिने पुष्टानां पतये नमो नमो भवस्य हेत्री जगतां पतये नमो नमो रुद्राया तथा क्षेत्राणां पतये नमो नमः सूत्राय वनानां पतये नमो नमो रोहिताय स्थपये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय रक्षाणां पतये नमो नमो मन्त्रये वारिस्मृताय औषधीनां पतये नमो नमो उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः कृष्णवीराय धावते सत्त्वनां पतये नमः नमः सहमानाय व्याधिनाभ्याधिनीनां पतये नमो नमः ककुभाय निषङ्गेस्तेनां पतये नमो नमो निषङ्गिषु धिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते सायूनां पतये नमो नमो निचेलवे परिचरायारण्यानां पतये नमो नमः श्रुताभिभ्योजिभ्यां तद्योष्णतां पतये नमो नमो सिमद्यो नक्तञ्चरभ्यः कृकृन्तानां पतये नमो नमः उष्णीषिणे गिरिशलाय कृन्तानां पतये नमो नम इषुमध्यो धन्वाविभ्यश्च भो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च भो नमो नम आयच्छद्यो विसृजद्भ्यश्च भो नमो नमोऽस्यद्यो विद्यभ्यश्च भो नमो नमासीनेभ्यश्च भो नमो नमः स्वपद्यो जाग्रद्भ्यश्च भो नमो नमस्तिष्ठद्यो धावद्भ्यश्च भो नमो नमः सभातिभ्यश्च भो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च भो नमः नमाराधिनीभ्यो विभ्यन्तीभ्यश्च भो नमो नम उष्णाभ्यस्तृम्भतीभ्यश्च भो नमो नमो वृतेभ्यो वृत्सपतिभ्यश्च भो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च भो नमो नमो गणेभ्यो गणपतिभ्यश्च भो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च भो नमो नमो मध्याक्षोलकेभ्यश्च भो नमो नमो रथिभ्यो रथपतिभ्यश्च भो नमो नमो रथेभ्यो रथपतिभ्यश्च भो नमो नमस्येनाभ्यस्येनानिभ्यश्च भो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतुभ्यश्च भो नमो नमस्तक्षभ्यो रथकारेभ्यश्च भो नमो नमः कुनारेभ्यः कर्मारेभ्यश्च भो नमो नमः कुञ्जिष्टेभ्यो भ्यश्च भो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च भो नमो नमो मृगैभ्यश्वनिभ्यश्च भो नमो नमश्वभ्यश्वपतिभ्यश्च भो नमः नमो भवाय च ऋताय नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च क्षितिगण्ठाय नमः कपर्दिने च व्यप्रकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो नमो मेषुष्टमाय च श्रुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वृषीयते च नमो वृद्धाय च मृद्वने च नमो अग्रियाय च प्रथमाय च नम आशवे चाजिलाय च नमः शीघ्राय च शीघ्राय च नमः ऊर्म्याय च वस्वन्याय च स्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्य च बुद्धियाय च नमस्सो मुख्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमो वर्याय च कर्म्याय च नमस्सोऽप्याय च साम्याय च नमो वन्याय च कक्षाय च नमस्सवाय च प्रतिष्ठवाय च नम आसुषेणाय च शुनकाय च नमस्सूराय च वृन्दवे च नमो भण्डिरे च वरुधिरे च नमो बिल्वे च कवचे च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृषवे च प्रमृषाय च नमो धूताय च प्रहिताय च नमो निषङ्गिणे च श्रीमते च नमस्ते चायुषे च नमः स्वायुधाय च सुसंवने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीत्याय च नमः सूत्याय च सरस्याय च नमो नाद्याय च वैषन्दाय च नमः कूप्याय च वच्याय च नमः वश्याय च वश्याय च नमो भेघ्याय च विद्युताय च नम ईषुयाय च तप्याय च नमो वात्याय च वेश्वियाय च नमो वात्सलाय च वास्तुपाय च हर 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 नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय नमः शञ्जाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो हनुमते कलिञ्जसे च नमो वृषभेभ्यो हरिकेभ्यो नमः ताराय नमः शम्भवे यमयोगवे नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थाय च पूर्याय च नमः पार्याय च भार्याय च नमः पुत्रणाय शोत्तरणाय च नमः आधार्याय च दात्याय च नमः षष्ट्याय च भेण्याय च नमः सिद्धाय च भाग्याय च नमः हिरण्याय च प्रपत्याय च नमः विदुंशिलाय च क्षयणाय च नमः कवर्तिने च पुरस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तुयाय च गेह्याय च नमः काट्याय च गर्भवरेष्ठाय च नमो ददर्याय गिरिभेष्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्याय च हरिकाय च नमो लोप्याय च लप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशत्याय च नमो पगुरमाणाय च विघ्नते च नमः आक्षीरे च नमो किलिकेभ्यो देवानागुं ो नमो विक्षेणगेभ्यो नमो विजिम्भक्तेभ्यो नम आयुर्हरेभ्यो नम आमीमत्तेभ्यः द्रावेऽन्तस्पदे येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो येषाम् किं च नाममत् या ते रुद्रशिवात् शिवा विश्वाः भेषति शिवा रुद्रश्च भेषति तया नो मृडजीवसे इमागम् रुद्राय तपसे च पर्तिने क्षयद्वीराय प्रभामहे मतिम् यथा न शमसद्विपदे चतुष्पदे विश्वम् पुष्पम् रामे अस्मिन्ननातुरम् मृडामो रुद्रोतनोमयस्पृहीक्षयद्वीराय नमसा देवते यच्छम् च योश्च मनुदायते पिता ततश्यामतव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकम् मानवुक्षन्तमुतमानवुक्षितम् मानो वधीः पितरम् मोत मातरम् प्रियमानस्तनुवो रुद्ररीरिषः मानस्तोके तन ये मान आयुषिमानोऽश्वमानोऽश्वेषु रीरिषः वीरान् मानो रुद्रवामितो वधीर्भविष्मन्तो नमसा विधेमते आरात्ते गोघ्नवत पौरुषज्ञे क्षयद्वीराय सुम् नमस्वेते अस्तु रक्षा च नो हरिजदेव ब्रूयता च नः शर्म यच्छद्विवहाम् गर्तसतम् युवानम् मृगम् नदीनमुपातुमुग्रम् मृडाय ऋत्रे रुद्रस्तवानो अन्यन्ते अस्मन्निपपन्तु सेनाः परिणो रुद्रस्य हेतुर्वृणक्तु परिप्रेषस्य दुर्मतिभगायोः अवस्थिता महवध्यस्तनुष्णमीठस्तोकायतनया मृडया मीषुष्टमशिवतमशो वनः सुमना भव परमे वृक्षाय सन्निधाय कृत्यम् वसानाचरव्याकम् विप्रदाकहि त्रिगिरितगोहितनमस्ते अस्तु भगवः यास्ते सहस्रगम् हेतयोन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रधा पाहवोस्तव हेतयः त्वसामीषा नो भगवः पदाचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्राधिगुण्याम् एषाकम् सहस्रयोजने भन्वाय तन्मसि अस्मिन् महत्यर्णवेन्तरिक्षे भवाधि नीलग्रीवाश्चिकण्ठाश्च सर्वाहक्षमाचराः नीलग्रीवाश्चिकण्ठाधिपकम् रुद्रावपश्रिताः ये वृक्षेषु तस्मिन् जला नीलग्रीवायोहिताः ये भूतानामतिपतयो विशिषासकर्वर्गिनः ये अन्येषु विविच्छन्ति पात्रेषु विभोजनान् ये पथाम् अजलक्षयैनमृताय विविधः ये तीर्थानि प्रचलन्ति सितावन्तो निषङ्गिणः य एतावन्तश्च भूयांशश्च दिशो रुद्राविदच्छिरे येषाम् सहस्रयोजे धन्वाविधन्वसि नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिव्येषामन्नम्बातो वर्षविषमस्तेभ्यो चक्राक्षीर्षदक्षिणादश प्रतीचीर्दशोदीचीर्दशोद्वास्तेभ्यो नमस्ते नो मृयन्तु ग्रीष्मश्च नो द्वेष्टितम् वोचम् भे दधामि त्रयम् वरम् यदामे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनाम् मृतो रुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सुयोषो विश्वाहुनायो विश्वस्य ऋतम् नमो देवसुरम् नमश्च अयम् मे हस्तो भगवानयम् मे भगवत्पदः अयम् मे विश्वभेषोयगम् शिवाभिमर्षणः एते सहस्रमैकम् प्राष्टावृद्धो मद्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः येनान्येनाभ्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि
सर्वापमृत्युम् नश्यतु आयुर्वर्धताम् सदाशिवम् ॐ शान्ति शान्ति शान्तिः ॐ अस्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मेयश्च मे च मे ऋतुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च महावृश्च मे विरुधश्च मलोहृदयश्च मे कृष्टपक्षम् च मे कृष्टपक्षम् च मे काम्याश्च मे वसवारण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे विद्युश्च मे भूतम् च मे भूतिश्च मे वस च मे वसतिश्च मे कर्म च मे शतिश्च मेऽर्धश्च मयेवश्च मे अग्निश्च महेन्द्रश्च मे ॐ शान्ति शान्ति शान्तिः कामदेवाय नमः स्नानम् समर्पयामि ज्येष्ठाय नमः वस्त्रयज्ञम् समर्पयामि श्रेष्ठाय नमः उपवेदम् समर्पयामि रुद्राय नमः आभरणानि समर्पयामि कालाय नमः दिव्यश्रीगन्धान्धारयामि कलविकरणाय नमः धवलाक्षतान् समर्पयामि बलविकरणाय नमः बिल्वदम् समर्पयामि बलाय नमः धूपमाघ्रापयामि बलाय नमः धूपमाघ्रापयामि बलप्रमथनाय नमः साक्षात् दीपम् दर्शयामि धूपदीपान्तरम् शुद्ध आचमनि बलप्रमथनाय नमः साक्षात् दीपम् दर्शयामि बलप्रमथाय नमः साक्षात् दीपम् दर्शयामि धूपदीपान् बलप्रमथाय नमः साक्षात् दीपम् दर्शयामि धूपदीपान्त्रम् शुद्ध आचमनीयम् समर्पयामि सर्वभूतपमनाय नमः नैवेद्यम् ॐ भूर्भुवः स्वः ॐ तत्सवितुरेण्यम्वा सत्येन परिषिञ्चामि अमृतमस्तु अमृतोपस्तमसि श्रीउमामहेश्वरस्वामी नमः अमृतनैवेद्यपरिकल्पयामि ॐ प्राणाय स्वाहा ॐ अपानाय स्वाहा ॐ ज्ञानाय स्वाहा ॐ उदानाय स्वाहा ॐ समानाय स्वाहा ॐ ब्रह्मणे स्वाहा मध्ये मध्ये पानीयम् समर्पयामि अमृताभिधानमस्य उत्तरापहम् समर्पयामि हस्तौ क्षालयामि पादौ क्षालयामि शुद्ध आत्मनीयम् समर्पयामि मनोन्मनाय नमः ताम्बूलम् మనోన్మనాయ నమః తాంబూలం సమర్పయామి తాంబూలతృణాంతరం శుద్ధాచమనీయం సమర్పయామి నీరాజనం ఓం శుద్ధాత్మనీయం సమర్పయామి నమస్కరామి నమః పార్వతీ వదతే హర హర మహాదేవ ఓం తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహి తన్నో రుద్రః ప్రచోదయాత్ దివ్య సువర్ణ మంత్రపుష్పం సమర్పయామి ఈశాన సర్వ విద్యానాం ఈశ్వర సర్వభూతానాం
బ్రహ్మాధిపతి బ్రహ్మ శివో మే అస్తు
సదాశివో ఆత్మ ప్రదక్షిణ నమస్కారాన్ని సమర్పయామి అనేన పంచమవారాభిషేకం చ భగవాన్ సర్వాత్మక హేతుధ్వం శ్రీ ఉమామహేశ్వర స్వామిదేవత అర్పణమస్తు. పూర్వోక్తే వంకటేషాం శుభదో శ్రీ ఉమామహేశ్వర స్వామిదేవతానుగ్రస్య శ్రీ ఉమామహేశ్వర స్వామిదేవత ప్రీత్యర్థం పంచమవారాభిషేకాంతరం అన్యోన్యసహాయేన షష్ఠవారాభిషేకం చ కరిష్యే. ఓం భూభువస్వ చండీశ్వరాయ నమః ఇత్యత్రతః పూర్వనిర్మాల్యం విసృజ్య ఓం సజ్జోజాతం ప్రభజ్యామి ఆవాహయామి ఆవాహనం సమర్పయామి సజ్జోజాతాదవై నమో నమః ఆసనం సమర్పయామి భవే భవేనా ఇతి పాద్యం సమర్పయామి అతిభవే భవస్వమాం ఇత్యభ్యం సమర్పయామి భవోద్భవాయ నమః శుద్ధ ఆచమనీయం సమర్పయామి వామదేవాయ నమః ఇతి స్నానం. ఓం నమో భగవతే రుద్రాయ. ఓం నమః